इदानीं ससन्दर्भं व्याख्यात इति प्रायेण सर्वेषु प्रश्नपत्रेषु एतादृशाः प्रश्नाः भवन्ति चितुरपरीक्षासु. तत्र एक उदाहरणार्थम् एकं स्वीकृत्य कथं ससन्दर्भव्याख्यानं कथं लेखनीयम् इति पश्यामः. एकं वाक्यं दत्त्वा ससन्दर्भं व्याख्यात इति प्रश्नः अस्ति चेत् प्रथमं तद् वाक्यं कस्मिन् ग्रन्थे कस्मिन् अङ्के अस्ति इति लेखनीयम्. उदाहरणम् एतत् वाक्यं मृतसञ्जीवननाटकस्य प्रथमाय अङ्के वर्तते, द्वितीये अङ्के अस्ति, नो चेत् प्रथम अङ्कात् स्वीकृतम् इति एवम् एकं प्रथमं वाक्यं भवेत्. अनन्तरं द्वितीयं तत् वाक्यं कः वदति, कं वदति. उदाहरणम् इन्द्रः कचकुमारं वदति, कचः इन्द्रं वदति, शुक्राचार्यः कचं वदति, एवं कः वदति, कं प्रति तद्वाक्यं वदति इति. तृतीयं तद्वाक्यं यत्र वर्तते तद किञ्चित् पूर्वं, तस्मात् किञ्चित् पूर्वम् आरभ्य सन्दर्भव्याख्यानं करणीयं. तद् पूर्वम् अनन्तरं तद्वाक्यात् परं कः विषयः संवृत्तः इति तद्विषये अपि किञ्चित् वक्तव्यम्. एवं तद्वाक्यं यत्र अस्ति ततः पूर्वं किञ्चित् ततः परं किञ्चित् इति आहत्य एवम् एतत् व्याख्याने भवेत्, सन्दर्भव्याख्याने भवेत्. एतस्य उदाहरणम् एकं पश्यामः.